अजादशत्रुमजरास्वर्वत्यनुस्वधामीतादस्वमीयते सुनोतनपचदब्रह्मवाहसे पुरुष्पृताय प्रतनम् दधातन आयः सोमेन जठरमपि प्रदामन्ततमगवामघो अन्धसः यदीय हन्त वे महावधः सहस्रभृष्टिर्मुषावधम् यमत् यो अस्मै धन्त उदवाय उधरि सोमम् सुनोति भवति द्युवाङ्गः अवापशक्रस्तदनुष्टिमोहति तनोशुभ्रह्मगवायस्कवासकः यस्यावधि पितरम् यस्य मातरम् यस्य शक्रो भ्रातरम् नादयीषते वेदीध्वस्य प्रजातायतम् करो न किल्बीषादीषदेव स्व आकरः न पञ्चभिर्दशभिर्वक्षारभङ्गासुम् वदासयते पुष्यदाचन जिरादिवेदमुजाहन्ति बाधु निरादे वयम् भजति गोमादिव्रजे वित्तक्षणः समृदौ चक्रमासदोन्मतोषोडस्वन्मतो वृषः इन्द्रो विश्वस्य दमिता विभीषणो यथा वसम् न यतिदा समार्याः समीम् पनेन यदि भोजनम् मुषे विदासुषे भजति सूनरम् वसु दुर्गे धनध्रीयते विश्वा पुरुषनोजो अस्य दमीषीमचुक्रुधत् संयज्जनौ सुधनौ विश्वसर्धसावेदिन्द्रो मघभागोषु शुभ्रिषु युषम् या अन्यमकृतन्द्रवे पण्युतीम् गव्यम् सृजते सत्त्वभिर्धुनीः सहस्रसामाग्नीवे शृङ्गणेषे सत्रीमग्न उपमान् केतुमर्यः तस्मापः संयतः पीपयन् तदस्मिन् क्षत्रमवावर्तेषमस्तु